श्रीदुर्गायै नमः श्रीदुर्गा सप्तशती अथ नवमोऽध्यायः ध्यानम् ॐ बन्धूककाञ्चननिभं रुचिराक्षमालाम् पाशाङ्कुशौचवरदान्निजबाहुदण्डैः बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र मर्धाम्बिकेशमनिशं वपुराश्रयामि ॐ राजोवाच विचित्रमिदमाख्यातं भगवन् भवता मम देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते चकारशुम्भो यत्कर्म निशुम्भश्चातिकोपनः ऋषिरुवाच चकारकोपमतुलं रक्तबीजे निपातिते शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् अभ्यधावन्निशुम्भोऽथ मुख्यया सुरसेनया तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः सन्दष्टौष्ठपुटात् क्रुद्धा हन्तुं देवीमुपाययुः आजगाम महावीर्यशुम्भो स्वबलैर्वृतः निहन्तु चण्डिकां कोपात् कृत्वा युद्धन्तु मातृभिः ततो युद्धमतीवासी देव्या शुम्भनिशुम्भयोः शरवर्षमतीवोग्रम् मेघयोरिव वर्षतोः चिच्छेदास्ताय छरांस्ताव्याय चण्डिका स्वशरोत्करैः ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ निशुम्भो निशितं खड्गैर्चर्मचादाय सुप्रभम् अताडयन् मूर्निसिंहन् देव्यावाहनमुत्तमम् ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् निशुम्भस्याशुचिच्छेद चर्मचाप्यष्टचन्द्रकम् छिन्ने चर्मणि खड्गे च शक्ते चिक्षेपसोऽसुरः तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् कोपाद्मा जग्राहदानवः आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् आविद्याथ गदां सोऽपि चिक्षेपचण्डिकां प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तन्तमायान्तं दैत्यपुङ्गवम् आहत्य देवी बाणौघै रपातयत भूतले तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम् सरथस्थस्तथात्युच्चैर्गृहीत परमायुधैः भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः तमायान्तं समालोक्य देवी शङ्खमवादयत् ज्याशब्दै चापि धनुषश् चकारातीव दुःसहम् पूरयामास ककुभो निजघण्टास्वनेन च समस्तदैत्यसैन्यानां तेजो वधविधायिना ततः सिंहो महानादैस्त्याजिते भमहामदैः पूरयामास गगनं गान्तथैव दिशो दश ततः काली समुत्पत्य गगनं क्ष्मामताडयत् कराभ्यान्तन्निनादेन प्राक् स्वनास्तेति रोहिताः अट्टाटहासमशिवं शिवदूती चकारः तैः शब्दैरसुरास्त्रीसुष् शुम्भक् कोपं परैययौ दुरात्मं स्तिष्ठतिष्ठेति व्याजहाराम्बिका यदा तदा जयेत्यभिहितं देवैराकाशसंस्थितैः शुम्भेनागत्यया शक्तिर्मुक्ता ज्वालातिभीषणा आयान्तीव निकूटाभा सा निरस्तामहोल्कया सिंहनादेन शुम्भस्य व्याप्तल्लो त्रयान्तरम् निर्घातनिस्वनो घोरो जितवानवनीपते शुम्भमुक्ताय चरां देवी शुम्भस्तत्प्रहिताय चरान् चिच्छेदस्वशरैरुग्रैः शतशोऽथ सहस्रशः ततसा चंडिका क्रुद्धा शूलेन विजहानतम् स तदा विहतो भूमौ मूर्छितो निपपातः ततो निशुम्भस्तं प्राप्य चेतनामातकार्मुकः आजघानशरैर्देवीं कालीं केसरिणं तथा पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी चिच्छेदतानि चक्राणि स्वशरैः सायकांशतान् ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् अभ्यधावत वै हन्तुं दैत्यसेना समावृतः तस्यापततैवाशु गदाय चिच्छेदचण्डिका खड्गेन शितधारेण स च शूलं समाददे शूलहस्तं समायान्तं निशुम्भममरार्दनम् हृदि विव्याधशूलेन वेगाविद्धेन चण्डिका भिन्नस्य तस्य शूलेन हृदयान्निसृतो परः महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् तस्य निष्क्रामतो देवी प्रहस्यस्वनवत्ततः शिरश्चिच्छेदखड्गेन ततो सावपतद्भुवि ततस्तिंहश्च खादोग्रन् दंष्ट्राक्षुण्ण शिरोदरान् असुरांस्तांस्तथा काली शिवदूते तथा परान् कौमारी शक्तिनिर्भिन्नाक् केचिन्नीषुर्महासुराः ब्रह्माणि मन्त्रपूतेन तो येनान्ये निराकृताः माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथा परे वाराही तुण्डघातेन केचिच्चूर्णीकृता भुवि खण्डं खण्डै च चक्रेण वैष्णव्या दानवाः कृताः वज्रेण चैन्द्रीहस्ताग्र विमुक्तेन तथा परे केचिद्विनेशुरसुराः केचिन्नष्टा महाहवत् भक्षिताश्चापरे काली शिवदूती मृगाधिपैः इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये निशुम्भवधो नाम नवमोऽध्यायः।